अथ एकचत्वारिंशः सर्गः। स च वाग्भिः प्रशस्ताभिः गमिष्यन् पूजितस्तया तस्माद्देशादपक्रम्य चिन्तयामास वानरः अल्पशेषमिदम् कार्यम् दृष्टे यमसिते क्षणा त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते। न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते हतप्रवीरा हिरणे हि राक्षसाः कथञ्चिदियुर्यदिहाज्यमार्दवम् कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् पूर्वकार्याविरोधेन सकार्यम् कर्तुमर्हति। न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः यो ह्यर्थम् बहुधा वेद स समर्थोऽर्थसाधने एहैव तावत्कृतनिश्चयो ह्यहम् यदि व्रजेयम् प्लवगेश्वरालयम् परात्मसम्मर्दविशेषतत्त्ववित् ततः कृतम् स्यान्मम भर्तृशासनम् कथम् नु खल्वद्य भवेत् सुखागतम् प्रसह्य युद्धम् मम राक्षसैः सह तथैव खल्वात्मबलम् च सारवत् सम्मानयेन्माञ्चरणे दशाननः ततः समासाद्य रणे दशाननम् समन्त्रिवर्गम् सबलप्रयायिनम् हृदि स्थितम् तस्य मतम् बलम् च वै सुखेन मत्वाहमितः पुनर्व्रजे। यदमस्य नृशंसस्य नन्दनोपममुत्तमम् वनम् नेत्रमनःकान्तम् नानाद्रुमलतायुतम् इदम् विध्वंसयिष्यामि शुष्कम् वनमिवानलः अस्मिन् भग्ने ततः कोपम् करिष्यति दशाननः। ततो महत्सास्य महारथद्यपम् बलम् समादेक्ष्यति राक्षसाधिपः त्रिशूलकालाय स पट्टिसायुधम् ततो महद्युद्धमिदम् भविष्यति। अहम् तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्य विक्रमः निहत्य तद्रावणचोदितम् बलम् सुखम् गमिष्यामि कपीश्वरालयम्। ततो मारुतवत्क्रुद्धो मारुतिर्भेमविक्रमः ऊरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ततस्तु हनुमान् वीरो बभञ्ज प्रमदावनम् मत्तद्विजसमाघुष्टम् नानाद्रुमलतायुतम् तद्वनम् मथितैः वृक्षैः भिन्नैश्च सलिलाशयैः चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः ताम्रैः केसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् नबभौ तद्वनम् तत्र दावानलहतम् यथा व्याकुलावरणारेजुः विह्वला यवता लताः लतागृहैश्चत्र गृहैश्च नाशितैः मोहोरगैः व्यालमृगैश्च निर्धृतैः शिलागृहैरुन्मथितैस्तथा गृहैः प्रणष्टरूपम् तदभून्महद्वनम्। सा विह्वला शोकलता प्रताना वनस्थली शोकलता प्रताना जाता दशास्य प्रमदावनस्य कपेर्बलाद्धिप्रमदावनस्य। सतस्य कृत्वार्थपतेर्महाकपिः महद्व्यलीकम् मनसो महात्मनः। युत्सुरेको बहुभिर्महाबलैः श्रियाज्वलंस्तोर्णमास्थितः कपिः। इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकचत्वारिंशः सर्गः। अथ द्विचत्वारिंशः सर्गः। ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च बभूवुस्त्रास सम्भ्रान्ताः सर्वे लङ्कानिवासिनः विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः। रक्षसाञ्च निमित्तानि क्रोराणि प्रतिपेदिरे। ततो गतायाम् निद्रायाम् राक्षस्यो विकृताननाः तद्वनम् ददृशुर्भग्नम् तञ्च वेरम् महाकपिम्। सता दृष्ट्वा महाबाहुः महासत्त्वो महाबलः चकारसुमहद्रूपम् राक्षसीनाम् भयावहम् ततस्तम् गिरिसङ्काशम् अतिकायम् महाबलम्। राक्षस्यो वानरम् दृष्ट्वा पप्रच्छुर्जनकात्मजाम् कोऽयम् कस्य कुतो वायम् किम् निमित्तमिहागतः कथम् त्वया सहानेन संवादः कृत इच्युत आचक्ष्वनो विशालाक्षि मा भूत्ते सुभगे भयम् संवादमसि तापाङ्गि त्वया किम् कृतवानयम् अथाब्रवीत्तदा साध्वी सेता सर्वाङ्गसुन्दरी रक्षसाम् भीमरूपाणाम् विज्ञाने मम का गतिः यूयमेवाभिजानीत योऽयम् यद्वा करिष्यति अहिरेव ह्यहेः पादान् विजानाति न संशयः अहमप्यस्य भेतास्मि नैनम् जानामि कोऽन्वयम् वेद्मि राक्षसमेवैनम् कामरूपिणमागतम् वैदेह्यावचनम् श्रुत्वा राक्षस्यो विद्रुता दिशः स्थिताः काश्चिद्गताः काश्चित् रावणाय निवेदितुम् रावणस्य समीपे तु राक्षस्यो विकृताननाः विरूपम् वानरम् भीमम् आख्यातुमुपचक्रमुः अशोकवनिका मध्ये राजन् भीमवपुः कपिः सेतया कृतसंवादः तिष्ठत्यमितविक्रमः न च तम् जानकी सीता हरिम् हरिणलोचना अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया तेरत्वद्भुतरूपेण यत्तत्तव मनोहरम् नानामृगगणाकीर्णम् प्रमृष्टम् प्रमदावनम् न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः यत्र सा जानकी सीता सतेन न विनाशितः जानकी रक्षणार्थं वा श्रमाद्वा नोपलभ्यते अथवा कश्रमस्तस्य सैव तेनाभिरक्षिता चारुपल्लवपुष्पाढ्यम् यं सेता स्वयमास्थिता प्रवृद्धसिंसुपावृक्षः स च तेनाभिरक्षितः तस्योग्ररूपस्योग्रत्वम् दण्डमाज्ञातुमर्हसि सेता सम्भाषिता येन तद्वनम् च विनाशितम् मनः परिगृहीताम् ताम् तव रक्षो गणेश्वर कस्सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः राक्षसीनाम् वच श्रुत्वा रावणो राक्षसेश्वरः हुताग्निरव जज्ज्वाल कोपसंवर्तिते क्षणः तस्य क्रुद्धस्य नेत्राभ्याम् प्रापतन्नश्रुबिन्दवः देप्ताभ्यामिव देपाभ्याम् साच्यशः स्नेहबिन्दवः आत्मनस्सदृशान् सोरान् किङ्करान् नाम राक्षसान् व्याधिदेशमहातेज निग्रहार्थम् हनूमतः तेषामसीति साहस्रम् किङ्कराणाम् तरस्विनाम् निर्ययुर्भवनात् तस्मात् कोटमुद्गरपाणयः महोदरा महादंष्ट्रा घोररूपा महाबलाः युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः ते कपीन्द्रम् समासाद्य तोरणस्थमवस्थितम् अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः आजघ्रुर्वानरश्रेष्ठम् शरैश्चादित्यसन्निभैः मुद्गरैः पट्टिसैः सोलैः प्रासतोमरशक्तिभिः परिवार्य हनूमन्तम् सहसा तस्थुरग्रतः हनुमानपि तेजस्वी श्रीमान् पर्वतसन्निभः क्षितावाविध्यलाङ्गोलम् ननाद च महास्वनम् स भूत्वा सुमहाकायो हनुमान् मारुतात्मजः धृष्टमास्फोटयामास लङ्काम् सिद्धेन पूरयन् तस्यास्फोटितसिद्धेन महता सानुनादिना पेतुर्विहङ्गा गगनात् उच्चैश्चेदमघोषयत् जयत्यतिबलो रामो लक्ष्मणश्च महाबलः राजा जयति सुग्रीवो राघवेणाभिपालितः दासोऽहम् कोसलेन्द्रस्य रामस्याकृष्टकर्मणः हनुमान् शत्रुसैन्यानाम् निहन्ता मारुतात्मजः नरावणसहस्रम् मे युद्धे प्रतिबलम् भवेत् शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः अर्थयत्वा पुरीम् लङ्काम् अभिवाद्य च मैथिलीम् समृद्धार्थो गमिष्यामि मिषताम् सर्वरक्षसाम् तस्य सन्नादशब्देन ते भवन् भयशङ्किताः ददृशुश्च हनुमन्तं सन्ध्यामेघमिवोन्नतम्। स्वामी सन्देशे निश्यङ्काः ततस्ते राक्षसाः कपिं चित्रैः प्रहरणैः भीमैः अभिपेतुस्ततस्ततः सतैः परिवृतस्सोरैः सर्वतः स महाबलः आससादाय सम्भ्रमं परिघं तोरणाश्रितं सतं परिघमादाय जघान रजनीचरान् सपन्नगमिवादाय स्फुरन्तं विनतासुतः विचचाराम्बरेवेरः परिगृह्य च मारुतिः सोदयामास वज्रेण दैत्यानिव सहस्रदृक् सहत्वा राक्षसान् वेरान् किङ्करान् मारुतात्मजः युद्धकाङ्क्षी पुनर्वेरः तोरणं समुपाश्रितः ततस्तस्माद्भयान्मुक्ताः कतिचित् तत्र राक्षसाः निहतान् किङ्करान् सर्वान् रावणायञ्जवेदयन् सराक्षसानां निहतं महाबलं निशम्य राजा परिवृत्तलोचनः समाधिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम्। इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे द्विचत्वारिंशः सर्गः। अथ त्रिचत्वारिंशः सर्गः। ततः स किङ्करान् हत्वा हनुमान् ध्यानमास्थितः वनं भग्नं मया चैत्यप्रासादो न विनाशितः तस्मात् प्रासादमप्येनं भेमं विध्वंसयाम्यहम् इति सञ्चिन्त्य मनसा हनुमान् दर्शयन् बलं चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम् आरुरोहकपिश्रेष्ठो हनुमान् मारुतात्मजः आरुह्यगिरिसङ्काशं प्रासादं हरियोथपः बभौ ससु महातेजाः प्रतिसूर्य इवोदितः सम्प्रथृष्य च दुर्धर्षं चैत्यप्रासादमुत्तमं हनुमान् प्रज्वलल्लक्ष्म्या पारियात्रोपमोऽभवत् स भूत्वा सुमहाकायः प्रभावान् मारुतात्मजः धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् तस्यास्फोटितशब्देन महता श्रोत्रघातिना पेतुर्विहङ्गमास्तत्र चैत्यपालाश्च मोहिताः अस्त्रविजयतां रामो लक्ष्मणश्च महाबलः राजा जयति सुग्रीवो राघवेणाभिपालितः दासोऽहं कौसलेन्द्रस्य रामस्याकृष्टकर्मणः हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् शिलाभिश्च प्रहरतः पादपैश्च सहस्रशः अर्दयित्वा पुरीं लङ्काम् अभिवाद्य च मैथिलीं समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् एवमुक्त्वा विमानस्थः चैत्यस्थान् हरियोथपः ननादभेमनिरहरादो रक्षसां जनयन् भयं तेन शब्देन महता चैत्यपालाश्शतं ययुः गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान् विसृजन्तो महाकाया मारुतिं पर्यवारयन् ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः आजघ्नुः वानरश्रेष्ठं बाणैश्चादित्यसन्निभैः आवर्तयव गङ्गायाः तोयस्य विपुलो महान् परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम् उत्पाटयित्वा वेगेन हनुमान् पवनात्मजः ततस्तं भ्रामयामास शतधारं महाबलः तत्र चाग्निः समभवत् प्रासादश्चाप्यदह्यत दह्यमानं ततो दृष्ट्वा प्रासादं हर्यूथपः सराक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान् अन्तरिक्षे स्थितः श्रीमान् इदं वचनमब्रवीत् मादृशानां सहस्राणि विसृष्टानि महात्मनां बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम् अटन्ति वसुधां कृत्स्नां वयमन्ये च वानराः दशनागबलाः केचित् केचिद्दशगुणोत्तराः केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः सन्ति सौघबलाः केचित् केचिद्वायुबलोपमाः अप्रमेयबलाश्चान्ये తత్రాసన్ హరియోథపాః ఈ దృగ్వ్యధైస్తు హరిభిః వృతో దంతనఖాయుధైః శతైః శతసహస్రైశ్చ కోటీభిరయుతైరపి ఆగమిష్యతి సుగ్రీవః సర్వేషాం వో నిషూదనః నేయమస్తి పురీలంకా నయూయం నచరావణః యస్మాదిక్ష్వాకునాథేన బద్ధం వైరం మహాత్మనా. ఇత్యార్షే శ్రీమద్ రామాయణే వాల్మీకీయే ఆదికావ్యే సుందరకాండే త్రిచత్వారింశత్ సర్గః. అథ చతుశ్చత్వారింశత్ సర్గః. సందిష్టో రాక్షసేంద్రేణ ప్రహస్తస్య సుతో బలీ జంబుమాలీ మహాదంష్ట్రో నిర్జగామధనుర్ధరః రక్తమాల్యాంబరధరః స్రగ్వీ రుచిరకుండలః మహాన్ వివృత్తనయనః చండస్ సమరదుర్జయః ధనుశ్చక్రధనుః ప్రఖ్యం మహద్రుచిరసాయకం విస్ఫారయానో వేగేన వజ్రాశనిసమస్వనం తస్య విస్ఫారఘోషేణ ధనుషో మహతాదిశః ప్రదిశశ్చ నభశ్చైవ సహసా సమపూర్యత రథేన ఖరయుక్తేన తమాగతముదీక్ష్య సః హనుమాన్ వేగసంపన్నో జహర్షచననాద చ తం తోరణవిటంకస్థం హనుమంతం మహాకపిం జంబుమాలీ మహాబాహుః వివ్యాధ నిశితైశ్శరైః. అర్ధచంద్రేణ వదనే శిరస్యేకేన కర్ణినా బాహ్వోర్వివ్యాధ నారాచైః దశభిస్తం కపీశ్వరం తస్య తచ్చుసుభే తామ్రం శిరేణాభిహతం ముఖం శరదీవాంబుజం ఫుల్లం విద్ధం భాస్కరరశ్మినా తత్తస్య రక్తం రక్తేన రంజితం సుశుభే ముఖం యథాకాశే మహాపద్మం సిక్తం చందనబిందుభిః. శుకోపబాణాభిహతో రాక్షసస్య మహాకపిః తతః పార్శ్వేతి విపులాం దదర్శ మహతీం శిలాం తరసా తాం సముత్పాట్య చిక్షేప జవవద్బలీ. తాం శరైర్దశభిః క్రుద్ధః తాడయామాస రాక్షసః విపన్నం కర్మ తద్దృష్ట్వా హనుమాంశ్చండ విక్రమః సాలం విపులముత్పాట్య భ్రామయామాస వీర్యవాన్. భ్రామయంతం కపిం దృష్ట్వా సాలవృక్షం మహాబలం చిక్షేప సువహూన్ బాణాన్ జంబుమాలీ మహాబలః. సాలం చతుర్భిశ్చిచ్ఛేద వానరం పంచభిర్భుజే ఉరస్యేకేన బాణేన దశభిస్తు స్తనాంతరే సశరైః పూరితతనుః క్రోధేన మహతావ్రతః తమేవ పరిహం గృహ్య భ్రామయామాస వేగతః. అతివేగోతివేగేన భ్రామయత్వా బలోత్కటః పరిహం పాతయామాస జంబుమాలేర్మహోరసి. తస్య చైవ శిరో నాస్తి నవాహు న చ జానుని న ధనుర్ న రథో నాశ్వాః తత్రా దృశ్యంత నేషవః. స హతః తరసా తేన జంబుమాలీ మహాబలః పపాత విహతో భూమౌ చూర్ణితాంగ విభూషణః. జంబుమాలీంచ నిహతం కింకరాంశ్చ మహాబలాన్ చుక్రోధరావణ శ్రుత్వా కోప సంరక్తలోచనః సరోష సంవర్తిత తామ్రలోచనః ప్రహస్త పుత్రే నిహతే మహాబలే. అమాత్య పుత్రా నతి వీర్య విక్రమాన్ సమాధి దేశాసు నిశాచరేశ్వరః. ఇత్యార్షే శ్రీమద్ రామాయణే వాల్మీకీయే ఆదికావ్యే సుందరకాండే చతుశ్చత్వారింశత్ సర్గః. అథ పంచచత్వారింశత్ సర్గః. తతస్తే రాక్షసేంద్రేణ చోదితా మంత్రిణః సుతాః నిర్యయుర్భవనాత్ తస్మాత్ సప్త సప్తార్చివచ్చసః మహాబల పరివారా ధనుష్మంతో మహాబలాః కృతాస్తాస్త్రవిధాం శ్రేష్ఠాః పరస్పరజయీషిణః హేమజాల పరిక్షిప్తైః ధ్వజవద్భిః పతాకిభిః తోయదస్వన నిర్ఘోషైః వాజియుక్తైః మహారథైః తప్త కాంచన చిత్రాణి చాపాన్యమిత విక్రమాః విస్ఫారయంత సంహృష్టాః తటిద్వంత ఇవాంబుదాః జనన్యస్తు తతస్తేషాం విదిత్వా किङ्करान् हतान् बभूवुत्सोकसम्भ्रान्ताः सबान्धवसुहृज्जनाः ते परस्परसङ्घर्षात् तप्तकाञ्चनभूषणाः अभिपेतुः हनूमन्तम् तोरणस्थमवस्थितम् सृजन्तो बाणवृष्टिन्ते रथगर्जितनिःसनाः वृष्टिमन्त इवाम्भोदा विचेरुर्नैरृताम्बुदाः अवकीर्णस्ततस्ताभिः हनुमान् शरवृष्टिभिः अभवत् संवृताकारः शैलराडिववृष्टिभिः सशरान् मोघयामास तेषामासु चरः कपिः रथवेगञ्च वीराणाम् विचरन् विमलेऽम्बरे सतैः क्रीडन् धनुष्मद्भिः व्योम्नि वेरः प्रकाशते धनुष्मद्भिर्यथा मेघैः मारुतः प्रभुरम्बरे सकृत्वानदम् घोरम् त्रासयंस्ताम् महाचमूम् चकार हनुमान् वेगम् तेषु रक्षस्सु वीर्यवान् तलेनाभ्यहनत्कांश्चित् पादैः कांश्चित् परन्तपः मुष्टिनाभ्यहनत्कांश्चित् नखैः कांश्चिद्व्यधारयत् प्रममाथोरसा कांश्चित् ऊरुभ्यामपरान् कपिः केचित्तस्य निनादेन तत्रैव पतिता भुवि ततस्तेष्वसन्नेषु भौमौ निपतितेषु च तत्सैन्यमगमत्सर्वम् दिशो दशभयार्दितम् विनेदुर्विस्वरम् नागा निपेतुर्भुवि वाजिनः भग्ननेडध्वजच्छत्रैः भूश्च कीर्णाभवद्रथैः स्रवता रुधिरेणाथ स्रवन्त्यो दर्शिताः पथि विविधैश्च सनैर्लङ्का ननादविकृतम् तदा सतान् प्रवृद्धान् विनिहत्य राक्षसान् महाबलश्चण्डपराक्रमः कपिः युत्सुरञ्जैः पुनरेव राक्षसैः तदैव वीरोऽभिजगामतोरणम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्यसुन्दरकाण्डे पञ्चचत्वारिंशत् सर्गः अथ षट्चत्वारिंशत् सर्गः हतान् मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना रावणः संवृताकारः चकारमतिमुत्तमाम् स विरूपाक्षयोपाक्षौ दुर्धरम् चैव राक्षसम् प्रघसम् भासकर्णम् च पञ्चसेनाग्रनायकान् सन्धिदेशदशग्रीवो वेरान् नयविशारदान् हनुमद्ग्रहणे व्यग्रान् वायुवेगसमान् युधि यातसेनाग्रगाः सर्वे महाबलपरिग्रहाः सवाजिरथमातङ्गाः स कपिः शास्यतामिति यत्तैश्च खलु भाव्यम् स्यात् तमासाद्यवनालयम् कर्म चापि समाधेयम् देशकालाविरोधिनम् न ह्यहम् तम् कपिम् मन्ये कर्मणा प्रतितर्कयन् सर्वथा तन्महद्भूतम् महाबलपरिग्रहम् वानरोऽयमिति ज्ञात्वा न हि शुध्यति मे मनः नैवाहम् तम् कपिम् मन्ये यथेयम् प्रस्तुता कथा भवेदिन्द्रेण वा सृष्टम् अस्मदर्थम् तपोबलात् स नागयक्षगन्धर्व देवासुरमहर्षयः युष्माभिः सहितैः सर्वैः मया सह विनिर्जिताः तैरवश्यम् विधातव्यम् व्यलीकम् किञ्चिदेव नः यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः सवाजिरथमातङ्गाः स कपिः शास्यतामिति तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् नावमान्यो भवद्भिश्च हरिर्धेरपराक्रमः दृष्टा हि हरयः पूर्वम् मया विपुलविक्रमाः वाली च सह सुग्रीवो जाम्बवांश्च महाबलः नीलसेनापतिश्चैव ये चान्ये द्विविदादयः नैवम् तेषाम् गतिर्भेम न तेजो न पराक्रमः न मतिर्न बलोत्साहः न रूपपरिकल्पनम् महत्सत्त्वमिदम् ज्ञेयम् कपिरूपम् व्यवस्थितम् प्रयत्नम् महदास्थाय क्रियतामस्य निग्रहः कामम् लोकास्त्रयस्येन्द्राः ससुरासुरमानवाः भवतामग्रतस्थातुम् न पर्याप्ता रणाजिरे तथापि तु न यज्ञेन जयमाकाङ्क्षतारणे आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला ते स्वामि वचनं सर्वे प्रतिगृह्य महौजसः समुत्पेतुर्महावेग हुताश समतेजसः रथैर्मत्तैश्च मातङ्गैः वाजिभिश्च महाजवैः शस्त्रैश्च विविधैः तेक्ष्णैः सर्वैश्चोपचिताबलैः ततस्तु ददृशुर्वीरा दीप्यमानं महाकपिं रश्मिमन्तमिवोद्यन्तं स्वतेजो रश्मिमालिनं तोरणस्थं महोत्साहं महासत्त्वं महाबलं महामतिं महावेगं महाकायं महाभुजं तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः तैस्तैः प्रहरणैर्भीमैः अभिपेतुः ततस्ततः तस्य पञ्चायसास्तेक्ष्णाः सिताः पेतमुखाश्चराः शिरस्युत्पलपत्राभा दुर्धरेण निपातिताः स तैः पञ्चभिराविद्धः शरैश्शिरसि वानरः उत्पपात नदन् व्योम्नि दिशो दश निनादयन् ततस्तु दुर्धरो वीरः स रथः सज्जकार्मुकः किरन् शरसतैस्तेक्ष्णैः अभिपेदे महाबलः स कपिर्वारयामास तं व्योम्नि शरवर्षिणं वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः अर्ध्यमानस्ततस्तेन दुर्धरेणानिलात्मजः चकारकदनं भूयो व्यवर्धत च वेगवान् सदूरं सहसोत्पत्य दुर्धरस्य रथे हरिः निपपातमहावेगो विद्युद्राशिर्गिराविव ततः समथिताष्टास्यं रथं भग्नाक्षकोबरं विहायन्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः तं विरूपाक्षयोपाक्षौ दृष्ट्वा निपतितं भुवि सञ्जातरोषौ दुर्धरषौ उत्पेततुररिन्दमौ सताभ्यां सहसोत्पत्य विष्ठितो विमलेम्बरे मुद्गराभ्यां महाबाहुः वक्षस्यभिहतः कपिः तयोर्वेगवतोर्वेगं विनिहत्य महाबलः निपपातपुनर्भूमौ सुपर्णसमविक्रमः ससालवृक्षमासाद्यतमुत्पाट्य च वानरः तावुभौ राक्षसौ वेरौ जघानपवनात्मजः ततस्तां स्त्रीन् हतान् ज्ञात्वा वानरेण तरस्विना अभिपेदे महावेगः प्रसह्य प्रघसो हरिं भासकर्णश्च संक्रुद्धः सोलमादाय वीर्यवान् एकतः कपिशार्दोलं यशस्विनमवस्थितं पट्टिसेन सिताग्रेण प्रघसः प्रत्ययोधयत् भासकर्णश्च शूलेन राक्षसः कपिसत्तमं सताभ्यां विक्षतैर्गात्रैः असृग्दिग्धतनूरुहः अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः समुत्पाट्य गिरेशृङ्गं समृगव्यालपादपं जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः गिरिशृङ्गसुनिष्पिष्टौ तुलशस्तौ बभूवतुः ततस्तेष्वसन्नेषु सेनापतिषु पञ्चसु बलं तदवशेषञ्च नाशयामास वानरः अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथैरथान् सकपिर्नाशयामास सहस्राक्ष इवासुरान् हतैर्नागैश्चतुरगैः भग्नाक्षैश्च महारथैः हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः ततः कपिस्तान् ध्वजिनीपतीन्द्रणे निहत्य वीरान् सबलान् सवाहनान् तदेव वीरः परिगृह्य तोरणं कृतक्षणः कालयव प्रजाक्षये इत्यार्षे श्रीमद् रामायणे वाल्मीकीयादिकाव्ये सुन्दरकाण्डे षट्चत्वारिंशः सर्गः अथ सप्तचत्वारिंशः सर्गः सेनापतीन् पञ्च सतु प्रमापितान् हनूमता सानुचरान् सवाहनान् समीक्ष्य राजा समरोद्धतोन्मुखम् कुमारमक्षम् प्रसमैक्षताग्रतः सतस्य दृष्ट्यर्पणसम्प्रचोदितः ప్రతాపవాన్ కాంచన చిత్రకారుముఖః సముత్పపాతాథ సదస్యుదీరితో ద్విజాతి ముఖ్యైర్హవిషేవ పావకః తతో మహాన్ బాల దివాకర ప్రభం ప్రతప్త జాంబూనదజాల సంతతం రథం సమాస్థాయ యౌస వీర్యవాన్ మహాహరిం తం ప్రతి నైరుతరషభః తతస్తపస్ సంగ్రహ సంచయార్జితం ప్రతప్త జాంబూనదజాల శోభితం పతాకినం రత్న విభూషిత ధ్వజం మనోజవాష్టాశ్వవరైస్సుయోజితం సురాసురాధృష్యమసంగచారిణం రవిప్రభం వ్యోమచరం సమాహితం సతూణమష్టాసి నిబద్ధబంధురం యథాక్రమావేశిత శక్తితోమరం విరాజమానం ప్రతిపూర్ణ వస్తునా సహేమదామ్నాశిశి సూర్యవర్చస దివాకరాభం రథమాస్థితస్తతః స నిర్జగామామరతుల్య విక్రమః సపూరయన్ కంచ మహీం చ సాచలాం తురంగమాతంగ మహారథస్వనైః బలైః సమేతైః సహితోరణస్థితం సమర్థమాసీనముపాగమత్కపిం సతం సమాసాద్య హరిం హరీక్షణో యుగాంతకాలాగ్నిమివ ప్రజాక్షయే అవస్థితం విస్మితజాత సంభ్రమః సమైక్షతాక్షో బహుమానచక్షుషా సతస్య వేగంచ కపేర్మహాత్మనః పరాక్రమంచారిషు పార్థివాత్మజః విధారయన్ స్వంచ బలం మహాబలో హిమక్షయే సూర్య ఇవాభివర్ధతే సజాతమంజుః ప్రసమీక్ష్య విక్రమం స్థిరం స్థితః సంయతి దుర్నివారణం సమాహితాత్మా హనుమంతమాహవే ప్రచోదయామాస శరైస్త్రిభిస్సితైః తతః కపింతం ప్రసమీక్ష్య గర్వితం జితశ్రమం శత్రుపరాజయోర్జితం అవైక్షతాక్షః సముదీర్ణ మానసః సబాణపాణిః ప్రగృహీతకార్ముకః సహేమ నిష్కాంగదచారుకుండలః సమాస సాదాసు పరాక్రమః కపిం తయోర్బభూవా ప్రతిమః సమాగమః సురాసురాణామపి సంభ్రమప్రదః రరాస భూమిర్నతతాప భానుమాన్ వవౌ న వాయుః ప్రచచాలచాచలః కపేః కుమారస్య చ వీక్ష్య సంయుగం ననాదచద్యౌరుదధిశ్చ చుక్షుభే తతస్సవీరస్ సుముఖాన్ పతత్రిణః సువర్ణపుంఖాన్ సవిషానివోరగాన్ సమాధి సంయోగ విమోక్షతత్వవిత్ శరానథత్రీన్ కపిమూర్ధ్న్యపాతయత్ సతైశ్శరైర్మూర్ధ్ని సమన్నిపాతితైః క్షరన్నసృగ్దిగ్ధ వివృత్తలోచనః నవోదితాదిత్యనిభః శరాంశుమాన్ వ్యరాజతాదిత్య ఇవాంశుమాలికః తతః ప్లవంగాధిపమంత్రి సప్తమః సమీక్ష్యతం రాజవరాత్మజం రణే ఉదగ్రచిత్రాయుధచిత్రకార్ముకం జహర్ష చాపూర్యత చాహవోన్ముఖః సమందరాగ్రస్థ ఇవాంశుమాలికో వివృద్ధకోపో బలవీర్య సంయుతః కుమారమక్షం సబలం సవాహనం దదాహ నేత్ర అగ్నిమరీచిభిస్తదా తతః స బాణాసన చిత్రకార్ముకః శరప్రవర్షో యుధిరాక్షసాంబుదః శరాన్ముమోచాసు హరీశ్వరాచలే బలాహకో వృష్టిమివాచలోత్తమే తతః కపిస్తం రణచండ విక్రమం వివృద్ధతేజో బలవీర్య సంయుతం కుమారమక్షం ప్రసమీక్ష్య సంయుగే ననాదహర్షాద్ఘనతుల్య విక్రమః సబాలభావాద్యుధి వీర్యదర్పితః ప్రవృద్ధమంజుః క్షతజోపమేక్షణః సమాససాదాప్రతిమం కపిం రణే గజో మహాకోపమివావృతం తృణైః సతేన బాణైః ప్రసభం నిపాతితైః చకారనాదం ఘననాదనిస్వనః సముత్పపాతాసు నభః సమారుతిః భుజోరువిక్షేపణఘోరదర్శనః సముత్పతంతం సమభిద్రవద్బలీ సరాక్షసానాం ప్రవరః ప్రతాపవాన్ రథీ రథిశ్రేష్ఠతమః కిరంశరైః పయోధరః శైలమివాస్మి వృష్టిభిః సతాన్ శరాంస్తస్య హరిర్విమోక్షయన్ చచారవీరః పథి వాయుసేవితే శరాంతరే మారుతవద్వినిష్పతన్ మనోజవః సంయతి చండ విక్రమః தமாத்த பாணாசனமாக ஒன்முகம் கமாஸ்திருணந்தம் விசிகைஹி செருவோத்தமைஹி அவைக்ஷதாட்சம் பகுமான சுட்சுஷா ஜகாம சிந்தாம் ச சமாருதாத்மஜஹ ததசரயிர் பென்ன புஜாந்தர கபிஹி குமார வீரேண மகாத்மனானதன் மகாபுஜ கர்ம விசேஷ தத்வவித் விசிந்தயாமாசரணே பராக்கிரமம் அபாலவத் பால திவாகர பிரபஹ கரோத்யஜம் கர்ம மகான் மகாபலஹ நச்சாஸ்ய சர்வாஹவ கர்மசோபினஹ பிரமாபணே மே மதிரத்ர ஜாயதே அயம் மகாத்மா ச மகாஸ்ய வீரியதஹ சமாஹிதஸ்ய அதிசஹஸ்ய சம்யுகே அசம்சயம் கர்ம குணோதயாதயம் சநாக யக்ஷைர் முனிபிஸ்ய பூஜிதஹ பராக்கிரமோத்சாஹ விவருத்த மானஸஹ சமீக்ஷதே மாம் பிரமுகாக்ரதஸ்த்யதஹ பராக்கிரமோஹ்யஸ்ய மனாம்சி கம்பயேத் சுராசுராணாமபி சீக்ரகாமினஹ நகல்வயம் நாபிபவேதுபேட்சிதஹ பராக்கிரமோஹ்யஸ்ய ரணே விவர்த்ததே பிரமாபணந்த்வேவ மமாத்ய ரோசதே நவர்த்தமானோக்னி ருபேட்சிதும் க்ஷமஹ இதி ப்ரவேகந்து பரஸ்ய தர்க்கயன் ஸ்வகர்ம யோகஞ்ச விதாய வீரியவான் சகார வேகந்து மகாபலஸ்ததா மதிஞ்ச சக்ரேஸ்ய வதே மகாகபிஹி சதஸ்ய தானஷ்ட ஹயான் மகாஜவான் சமாஹிதான் பாரசஹான் விவர்த்தனே ஜகான வேர பதி வாயு சீவிதே தல பிரஹாரைஹி பவனாத்மஜக்கபிஹி ததஸ்தலேனாபிஹதோ மகாரதஹ சதஸ்ய பிங்காதிபமந்திரிஜிதஹ பிரபக்னநேடஹ பரிமுக்த கோபரஹ பபாத பூமௌ ஹதவாஜிரம்பராத் சதம் பரித்யஜ்ய மகாரதோ ரதம் சகார்முக கட்கதர கமுத்பதன் தபோபியோகாத்ருஷிருக்ர வீரியவான் விஹாய தேகம் மருதாமிவாலயம் ததக் கபிஸ்தம் விசரந்தமம்பரே பதத்ரி ராஜா அநில சித்த சேவிதே சமேத்யதம் மாருத துல்ய விக்ரமஹ க்ரமேண ஜக்ராஹ சபாதயோர்த்ருடம் சதம் சமாவித்ய சஹஸ்ரஷ கபிஹி மகோரகங்க்ருஹ்ய இவாண்டஜேஸ்வரஹ முமோச்ச வேகாத் பித்ருதுல்ய விக்ரமோ மஹீதலே சம்யதி வானரோத்தமஹ சபக்ர பாஹூரு கடீ சிரோதரஹ க்ஷரன்ன சுருங்கிர்மதிதா ஸ்திரோச்சனஹ சபக்ர சந்தி ப்ரவிகீர்ண பந்தனோ ஹதஃ க்ஷதௌ வாயுசுதேன ராட்சஸஹ மகாகபிர் பூமிதலே நிபீட்யதம் சகார ரக்ஷோதிபதேர் மஹத்பயம் மஹர்ஷிபிச்சக்ரச்சரைர் மஹாவ்ரதைஹி சமேத்ய பூதைஸ்ச சயக்ஷபன்னகைஹி சுரைஸ்ச சேந்திரைஹி ப்ருஷஜாத விஸ்மயைஹி ஹதே குமாரே ச கபிர் நிரீட்சிதஹ நிஹத்யதம் வஜ்ரிசுதோபமப்ரபம் குமாரமக்ஷம் க்ஷதசோபமேட்சணஹ ததேவ வீரோபிஜகாமதோரணம் கிருதக்ஷணஃ கால யவ ப்ரஜாக்ஷயே இத்யர்ஷே ஸ்ரீமத் ராமாயணே வால்மீகியே ஆதிகாவ்யே சுந்தரகாண்டே சப்தசத்வாரிம்சத் சர்கஹ அத அஷ்டசத்வாரிம்சத் சர்கஹ ததஸ்ய ரக்ஷோதிபதிர் மகாத்மா ஹனுமதாக்ஷே நிஹதே குமாரே மனஸ்ஸமாதாய ததேந்திரகல்பம் சமாதிதேசேந்திரஜிதம் சரோஷம் த்வமஸ்த்ரவிச்சஸ்த்ரவிதாம் வரிஷ்டஹ சுராசுராணாமபி சோகதாதா த்வமஸ்த்ரவித் சஸ்த்ரவிதாம் வரிஷ்டஹ சுராசுராணாமபி சோகதாதா சுரேஷு சேந்திரேஷு ச த்ருஷ்ட கர்மா பிதா மஹாராதன சஞ்சிதாஸ்த்ரஹ தவாஸ்த்ரபலமாசாத்ய நாசுரா நமருத்கணாஹ நசேகுசமரேஸ்தாதும் சுரேஸ்வரசமாஸ்ரிதாஹ நகச்சித்ரிஷு லோகேஷு சம்யுகே நகதஸ்ரமஹ புஜவீர்யாபிகுப்தஸ்ச தபசாச்சாபிரக்ஷிதஹ தேசகாலவிபாகஜ்ஞஹ த்வமேவ மதிசத்தமஹ நதேஸ்த்வசக்யம் சமரேஷு கர்மணா நதேஸ்த்வகார்யம் மதிபூர்வமந்த்ரணே நசோஸ்தி கச்சித் த்ரிஷு சங்கிரஹேஷு வை நவேதயஸ்தேஸ்த்ரபலம் பலஞ்சதே ममानुरूपं तपसो बलंचते पराक्रमश्चास्त्रबलंच संयुगे नत्वां समासाद्य रणावमर्दे मनस्रमं गच्छति निश्चितार्थं। निहताः किंकराः सर्वे जंबुमाली च राक्षसः अमात्यपुत्रा वीराश्च पञ्चसेनाग्रजायिनः बलानि सुसमृद्धानि सास्य नागरथानि च सहोदरस्ते दयितः कुमारोक्षश्च सूदितः नहितेष्वेव मे सारो यस्त्वय्यरिनिषूदन इदं हि दृष्ट्वा निहतं महद्बलं कपेः प्रभावञ्च पराक्रमञ्च त्वमात्मनश्चापि समीक्ष्य सारं कुरुष्व वेगं स्वबलानुरूपं बलावमर्तस्त्वयि सन्निकृष्टे यथागते स्याम्यति स्यान्तशत्रौ तथा समीक्ष्यात्मबलं परञ्च समारभस्वास्त्रविदां वरिष्ठ नवीरसेनागणसोच्यवन्ति नवज्रमादाय विशालसारं न मारुतस्यास्य गतेः प्रमाणं न चाग्निकल्पः करणेन हन्तुं तमेवमर्थं प्रसमीक्ष्य सम्यक् स्वकर्म साम्याद्धि समाहितात्मा स्मरंश्च दिव्यं धनुषोऽस्त्रवीर्यं व्रजाक्षतं कर्म समारभस्व नखल्वियं मतिश्रेष्ठा यत्वां संप्रेषयाम्यहं इयञ्च राजधर्माणां क्षत्रस्य च मतिर्मता नानाशस्त्रैश्च संग्रामे वैशारद्यमरिन्दम अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे। ततः पितुस्तद्वचनं निशम्य प्रदक्षिणं दक्षसुतः प्रभावः चकारभर्तारमदीलसत्त्वो रणाय वीरः प्रतिपन्नबुद्धिः। ततस्तैः स्वगणैरिष्टैः इन्द्रजित् प्रतिपूजितः युद्धोद्धतः कृतोत्साहः संग्रामं प्रत्यपद्यत श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः निर्जगाम महातेजाः समुद्रयवपर्वसु सपक्षिराजोपमतुल्यवेगैः व्यालैश्चतुर्भिश्च ततीक्ष्णदंष्ट्रैः रथं समायुक्तमसङ्गवेगं समारुरोहेन्द्रजिदिन्द्रकल्पः स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः रथेनाभिययौ क्षिप्रं हनुमान् यत्र सोऽभवत् सतस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत् सुमहच्चापमादाय शतशल्यांश्च सायकान्। हनुमन्तमभिप्रेत्य जगामरणपण्डितः तस्मिंस्ततः संयति जातहर्षे रणाय निर्गच्छति बाणपाणौ दिशश्च सर्वाः कलुषा बभूवुः मृगाश्च रौद्रा बहुधा विनेदुः। समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः। आयान्तं सरथं दृष्ट्वा तोर्णमिन्द्रजितं कपिः विननाद महानादं व्यवर्धत च वेगवान्। इन्द्रजित्तु रथं दिव्यम् आस्थितश्चित्रकार्मुकः धनुर्विस्फारयामास तटिदूर्जितनिःस्वनं ततः समेतावतितीक्ष्णवेगौ महाबलौ तौ रणनिर्विशङ्कौ। कपिश्च रक्षोऽधिपतेश्च पुत्रः सुरासुरेन्द्राविवबद्धवैरौ सतस्य वीरस्य महारथस्य धनुष्मतः संयति सम्मतस्य शरप्रवेगं व्यहनत् प्रवृद्धः चचारमार्गे पितुरप्रमेयः। ततः शरानायत तीक्ष्णशल्यान् सुपत्रिणः काञ्चनचित्रपुङ्खान् मुमोच वीरः परवीरहन्ता सुसन्नतान् वज्रनिपातवेगान्। ततस्तु तत्स्यन्दननिःस्वनञ्च मृदङ्गभेरीपटः स्वनञ्च विकृष्यमाणस्य च कार्मुकस्य నిశమ్య ఘోషం పునరుత్పపాత శరాణామంతరేష్వాసు వ్యవర్తత మహాకపి హరిస్తస్యాభిలక్ష్యస్య మోహయన్ లక్ష్య సంగ్రహం శరాణామగ్రతస్తస్య పునఃసమభివర్తత ప్రసార్య హస్తౌ హనుమాన్ ఉత్పపాతానిలాత్మజః తావుభౌ వేగసంపన్నౌ రణకర్మ విశారదౌ సర్వభూతమనోగ్రాహి చక్రతుర్యుద్ధముత్తమం హనుమతో వేదన రాక్షసోంతరం నమారుతిస్తస్య మహాత్మనోంతరం పరస్పరం నిర్విషహౌ బభూవతుః సమేత్యతౌ దేవసమానవిక్రమౌ తతస్తు లక్ష్యే స విహన్యమానే శిరేష్వమోఘేషు చ సంపతత్సు జగామ చింతాం మహతీం మహాత్మా సమాధి సంయోగ సమాహితాత్మా తతో మతిం రాక్షసరాజసూనుః చకార తస్మిన్ హరివీరముఖ్యే అవధ్యతాం తస్య కపే సమీక్ష్య కథం నిగచ్చేదితి నిగ్రహార్థం తతః పైతామహం వీరః సోస్త్రమస్త్రవిదాం వరః సందధే సుమహాతేజాః తం హరిప్రవరం ప్రతి అవధ్యోయమితి జ్ఞాత్వా తమస్త్రేణాస్త్ర తత్వవిత్ నిజగ్రాహ మహాబాహుః మారుతాత్మజమింద్రజిత్ తేన బద్ధస్తతోస్త్రేణ రాక్షసేన స వానరః అభవన్ నిర్విచేష్టశ్చ పపాత చ మహీతలే తతోథ బుద్ధ్వా స తదస్త్రబంధం ప్రభోః ప్రభావాత్ విగతాత్మవేగః పితామహానుగ్రహమాత్మనశ్చ విచింతయామాస హరిప్రవీరః తతస్వాయుంభువైర్మంత్రైః బ్రహ్మాస్త్రమభిమంత్రితం హనుమాంశ్చింతయామాస వరదానం పితామహాత్ నమేస్త్రబంధస్య చ శక్తిరస్తి విమోక్షణే లోకగురోః ప్రభావాత్ ఇత్యేవ మత్వా విహితోస్త్రబంధో మయాత్మయోనేరనువర్తితవ్యః సవీర్యమస్త్రస్య కపిర్విచార్య పితామహానుగ్రహమాత్మనశ్చ విమోక్షశక్తిం పరిచింతయిత్వా పితామహాజ్ఞామనువర్తతే స్మ అస్త్రేణాపి బద్ధస్య భయం మమ న జాయతే పితామహమహేంద్రాభ్యాం రక్షితస్యానిలేన చ గ్రహణే చాపి రక్షోభిః మహాన్మే గుణదర్శనః రాక్షసేంద్రేణ సంవాదః తస్మాద్ గృహ్ణంతు మాం పరే స నిశ్చితార్థః పరవీరహంత సమీక్ష్యకారీ వినివృత్తచేష్టః పరైః ప్రసహ్యాభిగతైర్ నిగృహ్య ననాదతైః స్తైః పరిభత్స్యమానః తతస్తం రాక్షసా దృష్ట్వా నిర్విచేష్టమరిందమం బబంధుః శణవల్కైశ్చ ద్రుమచేరైశ్చ సంహతైః సరోచయామాస పరైశ్చ బంధనం ప్రసహ్య వీరైరభిగర్హణం చ కౌతూహలాన్మాం యది రాక్షసేంద్రో ద్రష్టుం వ్యవస్యేదితి నిశ్చితార్థః సబద్ధస్తేన వల్కేన విముక్తోస్త్రేణ వీర్యవాన్ అస్త్రబంధస్స చాన్యం హి నబంధమనువర్తతే అథేంద్రజిత్తు ద్రుమచీరబద్ధం విచార్య వీరః కపిసత్తమం తం విముక్తమస్త్రేణ జగామ చింతాం నాన్యేన బద్ధో హ్యనువర్తతేస్త్రం అహో మహత్కర్మ కృతం నిరర్థకం నరాక్షసైర్ మంత్రగతిర్విమృష్ట పునశ్చ నాస్త్రే విహతేస్త్రమన్యత్ ప్రవర్తతే సంశయితాస్మ సర్వే అస్త్రేణ హనుమాన్ముక్తో నాత్మానమవబుధ్యత కృష్యమాణస్తు రక్షోభిః తైశ్చ బంధైః నిపీడితః హన్యమానస్తతః క్రోరైః రాక్షసైః కాష్ఠముష్టిభిః సమీపం రాక్షసేంద్రస్య ప్రాకృష్యత స వానరః అథేంద్రజిత్తం ప్రసమీక్ష్యముక్తం అస్త్రేణ బద్ధం ద్రుమచీరసూత్రైః వ్యదర్శయత్ తత్ర మహాబలం తం హరిప్రవీరం సగణాయ రాజ్ఞే తం మత్తమివ మాతంగం బద్ధం కపివరోత్తమం రాక్షస రాక్షసేంద్రాయ రావణాయన్యవేదయన్ కోయం కస్య కుతో వాత్ర కింకార్యం కో వ్యపాశ్రియః इति राक्षस वीराणां तत्र संजज्ञिरे कथाः हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे। राक्षसाः तत्र संक्रुद्धाः परस्परमथा ब्रुवन् अतीत्य मार्गं सहसा महात्मा स तत्र रक्षोऽधिपपादमूले। ददर्श राज्ञः परिचारवृद्धान् गृहं महारत्नविभूषितं च। स ददर्श महातेज रावणः कपिसत्तमं रक्षोभिः विकृताकारैः कृष्यमाणमितस्ततः। राक्षसाधिपतिं चापि ददर्श कपिसत्तमः तेजोबलसमायुक्तं तपन्तमिव भास्करं सरोषसंवर्तितताम्रतृष्टिः। दशाननस्तं कपिमन्ववीक्ष्य अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तं प्रतिमन्त्रिमुख्यान्। यथाक्रमं तैः स कपिर्विपृष्टः कार्यार्थमर्थस्य च मूलमादौ। निवेदयामास हरीश्वरस्य दोतः सकाशादहमागतोऽस्मि। इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टचत्वारिंशत् सर्गः। अथ एकोनपञ्चाशत् सर्गः। ततः स कर्मणा तस्य विस्मितो भीमविक्रमः हनुमान् रोषताम्राक्षो रक्षोऽधिपमवैक्षत। भ्राजमानं महार्हेण काञ्चनेन विराजत मुक्ताजालावृतेनाथ मकुटेन महाद्युतिं। वज्रसंयोगसंयुक्तैः महार्हमणिविग्रहैः हैमैः आभरणैः चित्रैः मनसेव प्रकल्पितैः महार्हक्षौमसंवीतं रक्तचन्दनरूषितं स्वनुलिप्तं विचित्राभिः विविधाभिश्च भक्तिभिः विवृतैः दर्शनीयैश्च रक्ताक्षैः भेमदर्शनैः दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः शिरोभिर्दशभिर्वेरं भ्राजमानं महौजसं नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरं नीलाञ्जनचयप्रख्यं हारेणोरशिराजत। पूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदं बाहुभिर्बद्धकेयूरैः चन्दनोत्तमभूषितैः भ्राजमानाङ्गदैः पेनैः पञ्चशेर्षैरिवोरगैः। महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते उत्तमास्तरणास्तीर्णे सोपविष्टं वरासने अलङ्कृताभिरत्यर्धं प्रमदाभिः समन्ततः। वालव्यजनहस्ताभिः आरात् समुपसेवितं दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा। मन्त्रिभिर्मन्त्रतत्त्वज्ञैः निकुम्भेन च मन्त्रिणा सुखोपविष्टं रक्षोभिः चतुर्भिः बलदर्पितैः। कृत्स्नं परिवृतं लोकं चतुर्भिरिव सागरैः मन्त्रिभिः मन्त्रतत्त्वज्ञैः अन्यैश्च शुभबुद्धिभिः। अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम् अपश्यद्राक्षसपतिं हनुमानतितेजसं। विष्ठितं मेरुशिखरे सतोयमिव तोयदं सतैः सम्पीड्यमानोऽपि रक्षोभिर्भेमविक्रमैः। विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत। भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरं मनसा चिन्तयामास तेजसा तस्य मोहितः। अहोरूपमहो धैर्यम् अहो सत्त्वम् अहो द्युतिः अहो राक्षसराजस्य सर्वलक्षणयुक्तता। यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता। अस्य क्रोरैः नृशंसैश्च कर्मभिर्लोककुत्सितैः तेन बिभ्यति खल्वस्मात् लोकाः सामरदानवाः। अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत् इति चिन्तां बहुविधाम् अकरोन्मतिमान् हरिः। दृष्ट्वा राक्षसराजस्य प्रभावमवितौ जसः। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे एकोनपञ्चाशः सर्गः। अथ पञ्चाशः सर्गः। तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतस्थितं कोपेन महताविष्टो रावणो लोकरावणः। शङ्काहतात्मा दध्यौ स कपीन्द्रं तेजसावृतं किमेष भगवान् नन्दी भवेत् साक्षादिहागतः। येन सिप्तोऽस्मि कैलासे मया सञ्चालिते पुरा सोऽयं वानरमूर्तिस्यात् किं स्विद्बाणोऽपि वासुरः। स राजा रोषतां राक्षः प्रहस्तं मन्त्रिसत्तमं कालयुक्तमुवाचेदं वचो विपुलमर्थवत्। दुरात्मा पृच्छतामेष कुतः किं वास्य कारणं वनभङ्गे च कोऽस्यार्थो राक्षसीनाञ्च तर्जने मत्पुरीम् अप्रथृष्यां वा गमने किं प्रयोजनम् आयोधने वा किं कार्यं पृच्छतामेष दुर्मतिः। रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् समास्यसि हि भद्रन्ते नभीः कार्यात्त्वया कपे यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयं तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे। यदि वैश्रवणस्य त्वं यमस्य वरुणस्य वा चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमां विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा। नहि ते वानरं तेजो रूपमात्रं तु वानरं तत्त्वतः कथयस्वाद्य ततो वानरमोक्ष्यसे। अनृतं वदतश्चापि दुर्लभं तव जीवितम् अथवा यन्निमित्तस्ते प्रवेशो रावणालये। एवमुक्तो हरिश्रेष्ठः तदा रक्षो गणेश्वरम् अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा धनदेन न मे सख्यं विष्णुना नास्मि चोदितः। जातिरेव मम त्वेषा वानरोऽहमिहागतः दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया वनं राक्षसराजस्य दर्शनार्थे विनाशितं। ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः। रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे अस्त्रपाशैः न शक्योऽहं बद्धुं देवासुरैरपि। पितामहादेववरो ममाप्येषोऽभ्युपागतः राजानं दृष्टुकामेन मयास्त्रमनुवर्तितं विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः। केनचिद्राजकार्येण सम्प्राप्तोऽस्मि तवान्तिकं दूतोऽहमिति विज्ञेयो राघवस्यामितौ च सः। श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे पञ्चाशः सर्गः।